एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रिय सभाया गतदिवसीयोपवेशेन सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः बहुमतेन पारितीकृताः सन्ति। उपवेशे सर्वकारस्य नीति कार्यक्रमाणां विमर्शनस्य समाप्तेः पश्चात् राष्ट्रिय सभायाः अध्यक्षेण गणेश प्रसाद तिमलसिन्हा भिदेन निर्णयार्थं प्रस्तुताः नीति कार्यक्रमाः बहुमतेन पारितीकृताः वर्तन्ते। उपवेशे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः नीति कार्यक्रमाणां प्रभावकारी क्रियान्वयनाय संयुक्त सहयोगः प्रयासश्च आवश्यकौ स्तः इत्यवदत्। प्रधानमन्त्री प्रचण्डः नीति कार्यक्रम विषयके विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् सर्वकारस्य नीति कार्यक्रमाणां राष्ट्रिय सहमतेः रूपेण अग्रे वर्धनेन समृद्ध्या सामाजिक न्यायेन सुशासनेन च सहिते राष्ट्रनिर्माणे योगदानं भवतीति विश्वासम् अभिव्यनक। प्रधानमन्त्री प्रचण्डः अवासत नीति कार्यक्रमेषु विगतकालिक महत्वपूर्ण कार्यक्रमेभ्यो नैरन्तर्यं प्रदाय जनतया सह प्रत्यक्षं सम्बद्धेभ्य कार्यक्रमेभ्योऽपि प्राथमिकता प्रदत्ता वर्तते। प्रधानमन्त्री प्रचण्डः कृष्युद्योग स्वास्थ्य शिक्षा वृत्त्युपार्जन प्रवृत्ति क्षेत्राणां प्रादेशिकान् स्थानीयाञ्च स्तरान् यावत् विकास विस्तारौ सर्वकारस्य लक्ष्यमस्तीति प्रत्यपादयत्। तत्पूर्वम् उपवेशे सर्वकारस्य नीति कार्यक्रम विषयके विमर्शने सहभागिभिः सांसदैः नीति कार्यक्रमैः कृत संकल्पान् कार्यक्रमान् ऐक्यबद्धतया प्रभावकारीरूपेण क्रियान्वेतुं बलं दत्तम् आसीत्। राष्ट्रिय सभायाः अपरोपवेशः अस्यैव ज्येष्ठमासस्य चतुर्दशे दिवसे रविवासरे दिवा एकवादने वस्ता। प्रतिनिधि सभायाः गतदिवसीयोपवेशेऽपि सर्वकारस्य नीति कार्यक्रम विषयकं विमर्शनं सततम् अचलत्। विमर्शने सांसदाः आशावादी प्राभिलेखनस्य रूपेण आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाणाम् आनयनस्य हेतोः एतेषां क्रियान्वयनाय गभीरैर् भाव्यमिति अवदन्। सत्तापक्षदलानां सांसदाः नीति कार्यक्रमेषु उल्लिखितानां शोभनकार्याणां क्रियान्वयनत्वेन व्ययं स्वतश्च व्यवस्थातुं बलं प्रादुः। प्रतिपक्षदलानां सांसदाः नीति कार्यक्रमाः अमूर्त प्राभिलेखनस्य रूपेण आनीताः सन्तीति चर्चयन्तः अभासन्त। अर्थतन्त्र वृद्धि धनांका मानः कृषि व्यवस्थापन प्रवृत्ति क्षेत्रेषु उद्भूतानां समस्यानां समाधानकारिणः कार्यक्रमाः आगन्तुं शक्ताः न सन्ति। सांसदाः नीति कार्यक्रमेषु लिखितेषु विषयेषु क्रियान्वितेषु सत्सु वर्तमानावस्थायां सुधारः आनेतुं शक्यते इति ब्रुवाणाः, तथापि एतेषां क्रियान्वयन पक्षः समाभयपूर्ण स्थिति अतर्कयन्। सांसदाः राष्ट्रिय महत्वस्य आयोजनानां यस्यां कस्यामपि परिस्थितौ पूरणत्वेन योजनाः निर्मातुमपि बलं प्रादुः। संघीय संसद संयुक्त सञ्चालन नियमावल्याः प्रारूप प्रतिवेदनम् आदृत्य विमृष्टुमध्य अपराह्नस्य चतुर्वादने संयुक्तोपवेशः उपविश्यमानो वर्तते। प्रतिनिधि सभायाः ह्यस्तनोपवेशे सभामुख देवराज घिमिरे विषयममुम् अज्ञापयत्। अस्यां सभायां सर्वकारस्य नीति कार्यक्रमान् आदृत्य विद्यमानाय विमर्शनाय नैरन्तर्यं च प्रदीयते। प्रतिनिधि सभायाः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने उपविशति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति वनक्षेत्रस्य सबलं व्यवस्थापनं विदाय सम्प्रति जायमानं काष्ठस्य आयातम् अवरुध्य देशः काष्ठस्य निर्यातस्य दिशि अग्रे वर्धयितुं शक्यते। सामुदायिक वनोपभोक्तृ महासंघ नेपालस्य सप्तम राष्ट्रिय महाधिवेशनस्य उद्घाटन समारोहे ह्य प्रधानमन्त्री दाहालः अब्रवीद् स्वदेशीय काष्ठेभ्यः आन्तरावश्यकतां प्रपूर्य काष्ठानां निर्यातश्च कर्तुं शक्यते। अस्मात् कार्यात् प्रतिवर्षम् एक खर्वः 20 अब्जानि च रूप्यकाणि अर्जितुं शक्यन्ते इति तथ्याङ्कैः दर्शितमस्तीति प्रधानमन्त्री दाहालः अबोधयत्। प्रधानमन्त्री दाहालः संघीयतायाः क्रियान्वयनं विधातुं वनक्षेत्रस्य पुनः संरचनां विधाय स्थानीय प्रादेशिक संघीय सर्वकाराणाम् अधिकाराणां भूमिकायाः च स्पष्टं व्याख्यायाः नीतिगता वैधानिकी च व्यवस्था करिष्यते इति असूचयत्। सर्वकारेण प्रतिवर्षम् आश्विन मासस्य द्वितीयं दिवसं राष्ट्रिय शिक्षा दिवसस्य रूपेण आयोजयितुं निर्णितमस्ति। सिम्बा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालय ह्य उपविष्टेन मन्त्री परिषद उपवेशेन प्रतिवर्षम आश्विनस्य द्वितीयम दिवसम राष्ट्रिय शिक्षा दिवस रूपेण आयोजयितुम निर्णीतमिति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री रेखा शर्मा अज्ञापयत। एवमेव मन्त्री परिषद उपवेशेन जापान सर्वकारस्य शिक्षायै विश्वव्यापी सहकारी कार्यक्रमात् विश्वकोशाच्च विभिन्न शीर्षकेषु प्राप्यमानम् अनुदान सहयोगम् सौविध्यपूर्णम् ऋण सहायताम् च स्वीकर्तुम् निर्णीतमिति मन्त्री शर्मा अज्ञापयत। मन्त्री परिषद उपवेशेन सीमा प्रवेश बिन्दु शुल्क सम्बद्धस्य विधेयकस्य निर्माणाय सैद्धान्तिकीम् स्वीकृतिम् प्रदातुम् परराष्ट्र विषयाध्ययन प्रतिष्ठान विकास समितेः तृतीयम् एतद्विक्रमवर्षीयम् संशोधनादेशम् स्वीकर्तुम् च निर्णीतमिति सर्वकारस्य प्रवक्ता मन्त्री शर्मा उपवेशस्य पश्चात् संचारकर्मिभ्यः अज्ञापयत। काष्ठमण्डप जनपद न्यायालयेन कृत्रिम भूटान देशीय शरणार्थी प्रकरणे निगृहितान् 16 जनान् दिनद्वयम् निग्रहणे स्थापयितुम् प्रहरीणे अनुमतिः प्रदत्ता वर्तते। काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रहरी उपरीक्षकस्य सीताराम रिजालस्य अनुसारेण अवधिम् वर्धयितुम् ह्यः न्यायालये एतेषु जनेषु प्रस्तुतेषु सत्सु निग्रहणे स्थापयितुम् न्यायालयात् अतिरिक्तस्य दिनद्वयस्य अवधि प्राप्तो वर्तते। शरणार्थी प्रकरणे प्रहरिणा पूर्वमन्त्रिभ्याम् कार्यरतेन सचिवेन च सह 16 जनाः निगृहीताः सन्ति। एतस्यां घटनायां 13,100 जनैः 27,500 कोटयः रूप्यकाणि वञ्चितानीति निगद्य 22,000 निवेदनानि प्रहरी कार्यालये पञ्जीकारितानि सन्ति। संचार सूचना प्रविधि मन्त्री नेपाल सर्वकारस्य प्रवक्ता च रेखा शर्मा कथयति राजनीतिको उपलब्धीनाम् संस्थागतीकरण पूर्वकम् जनतायाः जीवनस्य रूपान्तरणम् राजनीतिकस्य सांचारिकस्य च क्षेत्रस्य संयुक्त दायित्वम् वर्तते। दक्षिणैशिक क्षेत्रस्यैव प्रथमस्य सामुदायिक रेडियो प्रसारणस्य रेडियो सगरमाथा प्रसारणस्य 27वां वार्षिकोत्सव कार्यक्रमम् पूर्वेद्युः सम्बोधयन्ती असौ राजनीतिक सांचारिकयोः उभयोरेव क्षेत्रयोः सहकार्येण लोकतान्त्रिक गणतन्त्रस्य संस्थापनस्य हेतोः एतद् संस्थागतीकृत्य एतन्माध्यमेन जनतायाः जीवनस्य रूपान्तरणात्मकम् संयुक्त दायित्वम् विद्यते एवेति अवोचत। संघीय लोकतान्त्रिक गणतन्त्रम् उत्कृष्टा व्यवस्था स्थिति चर्चयन्ती मन्त्री शर्मा अवोचत सत्ता सञ्चालकैः विहिताम् दुर्बलताम् प्रदर्श्य व्यवस्थायाम् प्रहारकारिणी प्रवृत्तिः अनुचिता वर्तते। नेपाली पर्वतारोहिणा कामिरिता शेर्पा इत्यनेन सगरमाथा शिखरस्य आरोहणे नवीन कीर्तिः अर्जिता अस्ति। ह्य पूर्वाह्नस्य 23:59 सगरमाथा शिखरम् असौ 28:12 आरोढुम् सफलो वर्तते। अस्य वर्षस्य वसन्तर्तौ कामिरिता इत्यस्य अयम् आरोहणम् द्वितीयम् वर्तते। एतत्पूर्वम् मे मासस्य 17 दिवसे अनेन 27वां वारम् सगरमाथा शिखरस्य आरोहणम् विहितम् आसीत्। राष्ट्रपतिना रामचन्द्र पौडेलेन कृत्रिम पदभ्याम सहयोगेन विश्वस्य सर्वोच्च शिखरस्य सगरमाथाख्यस्य सफलम् आरोहणम् विहितवते हरिबुढा मगर इत्यस्मै वर्धापनम् ज्ञापितम् वर्तते। एवमेव प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन च कार्यमिमम् लक्ष्यीकृत्य हरिबुढा मगर इत्यस्मै वर्धापनम् प्रदत्तमस्ति। सिम्बा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालय ह्य प्रधानमन्त्रिणा प्रचण्डेन कीर्तिमते सगरमाथा शिखरस्य आरोहिणे बुढा इत्यस्मै वर्धापनम् प्रदत्तमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितमस्ति। वसन्तर्तौ विधीयमाने सगरमाथा शिखरस्य आरोहणे बुढा मगर इत्ययम् अस्यैव ज्येष्ठस्य 5वें दिवसे सर्वोच्च शिखरम् आरूढः आसीत्। जानुतः उपरि पादद्वय विच्छेदयुतेन बुढा मगर इत्यनेन सगरमाथा सर्वोच्च शिखरम् आरुह्य विश्वकीर्तिः अधिगता वर्तते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री सरसिंह भण्डारी कथयति सर्वे मिलित्वा देश विकासाय प्रवर्तितव्यम्। महोत्तरी जनपदस्य वर्दीवास नगरपालिकायां ह्यः आयोजिते कार्यक्रमे मन्त्री भण्डारी दायित्वबोधेन स्वस्वक्षेत्रे चित्तैकाग्रतया निष्ठापूर्वकम् कार्याणि विधातुम् विकासे सक्रिया भवितुम् च सर्वान् अन्वरुणत।